सभीभ्यः नमस्कारः शुद्धकौमुदी कक्षां प्रति भवतां हार्दं स्वागतम्। पूर्वतनकक्षायां सुबन्ताः इत्यस्मिन् अध्याये प्रायः चत्वारिंशत् पदानि वयं दृष्टवन्तः, ततः अग्रे कानिचन पदानि इदानीं पश्यामः। एतस्य पुस्तकस्य मुद्रणाय उत्तमस्य कर्गजस्य उपयोगः कृतः इति वाक्यमस्ति। अत्र कर्गजस्य इत्येतस्य परिहारः परं, कागदस्य इति प्रयोगः उचितः। कर्गजशब्दस्य प्रयोगः बहुत्र क्रियमाणः दृश्यते, किन्तु तस्य व्युत्पत्तिः का इति अज्ञायते। व्युत्पत्तिः नाम प्रकृतिप्रत्ययविवेकः। तादृशी व्युत्पत्तिः अस्य कर्गजशब्दस्य न दृश्यते, अतः अत्र अर्थः तु पेपर् इति अर्थः बोधयितुम् इष्टः। तस्मिन् अर्थे कागदशब्दस्य प्रयोगः वरम्। सः शब्दः प्रयुक्तपूर्वः, प्रकृतिप्रत्ययादिविवेकयुक्तः च। कागदम् इत्यस्य ग्रहवाक्यम् एवमस्ति, कागः कागवर्णः मत्स्यादिः दीयते अत्र इति कागदम्। मन्त्रकल्पद्रुमः इति अस्मिन् ग्रन्थे अपि कागदशब्दस्य प्रयोगः दृष्टः। भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके कागदे वाष्टगन्धेन इति प्रयोगः तत्र दृष्टः। अतः कागदस्य इति पदस्य प्रयोगः अस्माभिः करणीयः। अत्र सर्वाणि सौविध्यानि सन्ति। अयमपि कश्चन प्रादेशिकभाषा प्रभावतः जायमानः प्रयोगः। अत्र आनुकूल्यानि इति शब्दः अथवा शब्दान्तरं वा प्रयोक्तव्यम्। शोभनाविधा सुविधा, तस्य स्वार्थे शै सौविध्यम् इति रूपस्य सिद्धिः। तन्नाम सुविधा इत्यस्ति, सुविधा इत्यस्मात् शै प्रत्ययः, तदा शै इत्यस्य अत्र ञकारः इत्संज्ञां प्राप्नोति, अतः ञित्वात् वृद्धिः भवति। सौविध्यम् इति ध्य इत्यत्र यकारः यः अस्ति सः शै इत्यत्र प्रत्यये विद्यमानः यकारः, सौविध्यम् इति रूपं सिद्ध्यति। पूर्वम् इदुक्तं शोभना विधा इति, विधा नाम प्रकारः। अत्र प्रकारार्थस्य न कोऽपि सम्बन्धः, अतः अस्थाने एव अस्य प्रयोगः। आनुकूल्यानि इति अर्थे सौविध्यानि इति अस्थाने प्रयोगः, अतः आनुकूल्यम् इति प्रयोगः अथवा सौलभ्यम् इति प्रयोगः समीचीनः भवति। यदि कदाचित् शिष्टप्रयोगः स्यात्, सुकरतया विधत्ते इति सुविधा इति वक्तुं शक्येत तस्य समर्थनम्, किन्तु तादृशप्रयोगः न दृष्टः। यदि तादृशः प्रयोगः लब्धः, आकश्चोपसर्गेति क प्रत्ययः सुविधस्य भावः सौविध्यम् इत्यादिकं वक्तव्यं स्यात्, किन्तु शिष्टप्रयोगः कुत्रापि न दृष्टः। व्याकरणे कश्चन न्यायः सर्वदा प्रयुज्यते, स्थितस्य गतिः चिन्तनीया इति, तदनुसारेण अत्र व्युत्पत्तिः दर्शिता। अतः आनुकूल्यशब्दस्य प्रयोगः एव वरम्। इति अस्य ग्रंथकारस्य आशयः। ग्रामांतर प्रदेशे मम गृहं अस्ति। ग्रामांतर प्रदेशे इति प्रयोगः अयुक्तः। ग्राम प्रदेशे इति वा अमुक ग्राम जनपदे इति वा प्रयोक्तव्यम्। ग्रामांतरम् नाम अन्यः ग्रामः, यथा अन्यः देशः देशांतरम् इति, अन्यः ग्रामः ग्रामांतरम्। अत्र ग्रामांतर प्रदेशे इति वाक्येन अन्यस्मिन् ग्रामे वसामि इति अर्थः न विवक्षितः। केषाञ्चित् महानगराणां नाम्ना एव जनपदाः जिल्ला अपि भवन्ति। तादृशे वसन् कश्चित् उपरि उक्तं वचनं वदति, अतः तत्र ग्रामान्तरशब्दः परिहरणीयः, ग्रामान्तरशब्दः न प्रयोक्तव्यः। तत् जिल्लाक्षेत्रं नाम जनपदक्षेत्रं सूचयितुं समुचितं पदान्तरं प्रयोक्तव्यम्। अतः ग्रामप्रदेशे इति अथवा कस्यचित् ग्रामस्य नाम उक्त्वा तादृश ग्रामजनपदे इति वा प्रयोक्तव्यम्। येन सम्माननम् अवमानम् च, सम्मानम् अवमानम् च समानतया दृश्यते सः समदर्शी। अत्र सम्मानः अवमानः च इति प्रयोक्तव्यम्। सम्मान अवमानौ अवमानशब्दौ पुल्लिङ्गे एव। गर्वोऽभिमानोऽहङ्कारः इति अमरकोशः अत्र प्रमाणम्। सम्मान अवमानयोः उपसर्गभेदः, प्रत्ययः तु समानः। अनयोः एव अर्थयोः सम्माननम् अवमाननम् इति लुडन्तरूपमपि अस्ति। लुडन्तं नपुंसकम् इति पूर्वं वयं जानीमः एव। अपमानशब्दः अपि कश्चन अस्ति, तस्य अर्थः तु समानः। अतः सम्मानः अवमानः इति प्रयोक्तव्यम्। भारतम् इदम् एकम्, अत्र विघटनं कदापि न भवेत्। भारतम् इदम् अखण्डम् इति प्रयोक्तव्यम्। एकम् इति पदम् एकत्वं बोधयति, तन्नाम द्वित्वादिकम् निवारयति। भारतस्य एकत्वं तु स्वतः सिद्धमेव। प्रकृतवाक्ये अखण्डत्वं विवक्षितं, न तु एकत्वम्। अतः एकशब्दस्य अखण्डार्थप्रतिपादकत्वं कुत्रापि न दृष्टम्। अतः भारतम् इदम् अखण्डम् इति प्रयोगः एव उचितः। प्रादेशिकभाषाप्रभावतः एतादृशं वाक्यमुच्यते, पण्डिताः भवन्तः कुत्र, पामराः वयं कुत्र। प्रायः कन्नडभाषायामपि एतादृशप्रयोगः प्रादेशिकभाषासु अस्ति। भवन्तः क्व, वयं क्व इति प्रयोगः एव उचितः स्यात्। महदन्तरं यदा द्योतयितुम् इष्यते तदा उभौ क्वौ प्रयुज्येते। तादृशं वचनमस्ति द्वौ क्वौ, महदन्तरं सूचयतः। प्राचीनप्रयोगं यदि वयं पश्यामः, रघुवंशे क्व सूर्यप्रभवो वंशः, क्व चाल्पविषया मतिः इति प्रसिद्धम् उदाहरणम्। शाकुन्तलेऽपि क्व वयं क्व वरोक्षमन्मथः इति शाकुन्तलेऽपि प्रयोगः दृश्यते। एतस्मिन् अर्थे द्वयोः कुत्र पदयोः प्रयोगः न दृष्टपूर्वः। अतः एव चारुदेवशास्त्रिणः वदन्ति द्वौ कौ महदन्तरं सूचयतः। तत् कस्मात् इति चेत् व्यवहारे परतंत्राः वयम् न स्वतंत्राः। अन्यः अपि कश्चन प्रादेशिक भाषा प्रभावतः प्रयुज्यमानम् अन्यदपि वाक्यमस्ति, कुत्र कुत्र शक्यं तत्र सर्वत्र अहं संस्कृतेन वदामि। यत्र यत्र शक्यं तत्र सर्वत्र इति प्रयोक्तव्यम्। यत् तत् शब्दाभ्याम् यः अर्थः अवगम्यते तं द्योतयितुम् इच्छति वक्ता। यत् शब्दस्थाने किं शब्दः प्रयुक्तः अस्ति तेन। अयं प्रयोगः अपेक्षितम् अर्थं न अवगमयति। अधिकरणजिज्ञासाय कुत्र इत्येतत् प्रयुज्यते, कस्मिन् स्थाने इति अर्थः। अत्र तादृशी जिज्ञासा नास्ति, अतः अत्र यत् शब्दः एव प्रयोक्तव्यः। अन्यदस्ति प्रसिद्धं वाक्यं, काया वाचा मनसा अहं देशसेवां करोमि। प्रायः बहुत्र प्रादेशिकभाषासु एतादृशः प्रयोगः अस्ति, काया वाचा मनसा इति, किन्तु तत्र कायेन इति प्रयोक्तव्यम्। काया इति रूपम् असाधु। देहपर्यायः कायशब्दः पुंसि पुल्लिङ्गे अस्ति, स च अकारान्तः। तृतीया विभक्तौ तस्य रूपं कायेन इति, अतः काया इति प्रयोगः भ्रान्त्या एव। संस्कृतभाषायाः उगमः कदा अभूत् इति केनापि न ज्ञायते इति कश्चन प्रयोगः भवति। उगमः इति अपशब्दः, उत्पत्ति उद्गमः इति उत्पत्तिः इति वा प्रयोक्तव्यम्। उद्गमः इत्यत्र उत् उपसर्गपूर्वकस्य गमधातोः भावार्थे अप् प्रत्ययः, उत्पत्तिः इत्यत्रापि उपसर्गः उत् एव, किन्तु तत्र पतलुर्धातोः तिन् प्रत्ययः, अर्थः तु समानः। उ इति उपसर्गः कोऽपि नास्ति, उगमः इति यदि वक्तव्यम् उ इति उपसर्गः स्यात्, किन्तु उ इति कोऽपि उपसर्गः नास्ति, उपसर्गः उत् इत्येव। अतः उत् इति उपसर्गपूर्वकः गमधातुः अथवा पतलुर्धातुः वा प्रयोक्तव्यः। उत् उपसर्गपूर्वकः गमधातुः चेत् उद्गमः इति, उत् उपसर्गपूर्वकः पतुर्धातुः चेत् उत्पत्तिः इति। अतः संस्कृतभाषायाः उद्गमः अथवा उत्पत्तिः कदा अभूत् इति केनापि न ज्ञायते। किमर्थम् आगतम् इति पृष्टे तेन उक्तम्, तूष्णी आगतम्। निष्कारणम् आगतम् इति वक्तव्यम् अथवा विशेषकारणं विनैव आगतम् इति वक्तव्यम्। अत्र तूष्णीम् इति पदम् अस्थाने, तूष्णीमिति मौनार्थकम् अव्ययम्, मौनं तूष्णीमिति समानार्थकम् अव्ययद्वयम्। अमरकोशेऽपि उक्तम् मौने तु तूष्णीं तूष्णीकाम् इति। मौनम् इति अर्थं सर्वे जानन्ति एव, निर्वचनस्थितिः मौनम इति उच्यते। उपर्युक्ते वाक्ये निर्वचन स्थिति वा सवचन स्थिति वा अत्र न अभिप्रेता। कारणं किम् इति अत्र जिज्ञासा उपरितन वाक्ये। अतः उत्तर रूपेण निष्कारणं अथवा विशेष कारणं विना इति प्रयोक्तव्यम्। प्रादेशिक भाषायां केषाञ्चित् पदानां अर्थाः बहवः भवन्ति, प्रसङ्गानुगुणम् अर्थः अवगम्यते। अनुवादावसरे अर्थसूक्ष्मम् अज्ञात्वा एव केचन सर्वत्रापि एकमेव पदं प्रयुञ्जते। अतः किमर्थमागतम् इति पृष्टे यदुत्तरं तूष्णीम् इति तद् न समीचीनम्, निष्कारणम् इति वा विशेषकारणं विना इव प्रयोक्तव्यम्। सभायाम् अतिथिं परिचायत कार्यकर्त्रा उक्तं भवन्तः महान्तः कवयः इति। एषः महाकविः इति वाक्यविन्यासः परं स्यात्। परिचयकथनसमये अङ्कुलनिर्देशपूर्वकं हिन्दीभाषया प्रायः उच्यते आप् इति, सा तु हिन्दीशैली। संस्कृतशैली ततः भिन्ना। सन्निकृष्टस्य जनस्य निर्देशाय एतत् इत्यादयः शब्दाः प्रयुज्यन्ते, न तु भवच्छब्दः। अतः एषः महाकविः इत्येव वक्तुं युक्तम्। आदरार्थे सर्वत्र बहुवचनान्तप्रयोगः अपि न समीचीनः, तत्तु पूर्वमस्माभिः ज्ञातमस्ति। प्रादेशिकभाषायां तु आदरद्योतनाय बहुवचनप्रयोगः क्रियते। संस्कृतभाषायां तु वर्यः, मान्यः, महोदयः इत्यादयः शब्दाः सन्ति। एकवचनान्तमपि आदरार्थकमेव संस्कृतभाषायां प्रयुज्यते। आदरद्योतनाय वर्यमहोदय इत्यादीनां प्रयोगपुरस्सरम् एकवचनान्तप्रयोगः न दोषाय। संस्कृते प्रसिद्धं प्रसिद्धा काचित् किञ्चित् वाक्यं शैलीयुक्तं, तत्र भवन्तो भवन्तः सर्वे प्रणम्यन्ते अस्माभिः इति। तत्र भवन्तः सर्वे इति प्रयोगः प्रशस्ततरः। तत्र भवन्तः, अत्र भवान् इत्यादयः पदसमुदायाः पूज्यवचनाः। तत्र इति पदस्य सन्निधाने पूज्यार्थ अभिधानेऽपि भवच्छब्दः सर्वनामत्वं न जहाति, न त्यजति इत्यर्थः। अतः एव नाटकादिषु तत्र भवच्छब्दस्य अनन्तरं नाम्नः एव प्रयोगः दृश्यते, यथा तत्र भवान् कालिदासः इति। तत्र भवन्तो भवन्तः इति आनुभवी प्राचुर्येण दृश्यते लोके। किन्तु वैयाकरणाः वदन्ति यथा करिकलभादिषु अत्रापि तत्र भवच्छब्दस्य पूजार्थमात्र अभिधायकत्वम्। अतः तत्र भवन्तो भवन्तः इति प्रयोगः अशुद्धः इति न, किन्तु अप्रशस्तः इति। तत्र भवन्तः सर्वे इति प्रयोगः समीचीनः, प्रशस्ततरः इति वक्तव्यम्। वराकेण तेन महत् कष्टम् अनुभूतम्। वराकेन इति अशुद्धम्, वराकेण इति वक्तव्यम्। नत्वस्य निमित्तं रेफः, षकारः, रकारः च। प्रायः यत्र नत्वस्य विषयः उक्तः व्याकरणे तत्र अस्माभिः स्मरणीयम्। रेफ शकारात् परः रकारात् परः नकारः नत्वं प्राप्नोति। अत्र सूत्रमस्ति रषाभ्यां नो नः समानपदे इति। रुवर्णात् नस्य नत्वं वाच्यम् इत्यपि वार्तिकमत्र अस्ति। अक्कुप्वाङ्गुं व्यवायेपि इति अन्यदपि सूत्रमस्ति। मध्ये निमित्तानि सन्ति चेदपि व्यवधानमस्ति चेदपि अट् कुप् इत्यादि व्यवधाने सत्यपि नत्वं भवति। वराकेण इत्यत्र यः निमित्तभूतः रेफः तदनन्तरम् आकार ककार एकाराः सन्ति, अतः णत्वं प्रवर्तते एव। तच्च णत्वं नित्यम्, अतः वराकेण इत्येव प्रयोक्तव्यम्। कतिचन अन्यानि उदाहरणानि पश्यामः। शुष्कानि इति अशुद्धम्, शुष्काणि इति वक्तव्यम्। वैशेषिकानाम् इति अशुद्धम्, वैशेषिकाणाम् इति वक्तव्यम्। वृषभानाम् इति अशुद्धम्, वृषभाणाम् इति वक्तव्यम्। निरूपकेन इति अशुद्धम्, निरूपकेण। द्रवद्रव्येण इति अशुद्धम्, द्रवद्रव्येण इति शुद्धम्। विश्वासार्हानाम् इति अशुद्धम्, विश्वासार्हाणाम् इति शुद्धम्। पितृव्यानाम् इति अशुद्धम्, पितृव्याणाम् इति शुद्धम्। क्षत्रियाणाम् इति अशुद्धम्, क्षत्रियाणाम् इति शुद्धम्। तक्षकेन इति अशुद्धम्, तक्षकेण इति शुद्धम्। त्रिवर्षीयेन इति अशुद्धम्, त्रिवर्षीयेण इति शुद्धम्। मनुष्येन इति अशुद्धम्, मनुष्येण इति शुद्धम्। नत्वविषये वयं किञ्चित् ज्ञातवन्तः। एतावता ये अंशाः उक्ताः तेषु कस्यापि सन्देहः अस्ति चेत् प्रष्टुमर्हन्ति, नो चेत् अग्रिमं पदं वयं स्वीकुर्मः। अग्रिमं पदं पश्यामः। विषयेऽस्मिन् विमर्शकाणाम् आशयः अन्यः एव अस्ति। विमर्शकानाम् इति वक्तव्यम्, नत्वम् अत्र न सम्भवति। अत्र नत्वस्य निमित्तं रेफः। रेफ नकारयोः मध्ये षकारः अपि अस्ति, स च नत्वस्य बाधकः, अतः अत्र नत्वं न भवति। एतादृशानि सन्ति बहूनि उदाहरणानि। अत्र निमित्तनकारयोः मध्ये विघ्नकारकाः वर्णाः सन्ति किम् इति परिशील्य एव नत्वं कर्तव्यम्। अन्यानि उदाहरणानि पश्यामः। कार्यदर्शिणा इति अशुद्धम्, कार्यदर्शिना इति शुद्धम्, राजकीयेन इति अशुद्धम्, राजकीयेन राजकीयेन इति शुद्धम्, प्रतिमानाम् इति अशुद्धम्, प्रतिमानाम् इति शुद्धम्। नर्तकानाम् इति अशुद्धम्, नर्तकानाम् इति शुद्धम्। अर्चकेण इति अशुद्धम्, अर्चकेन इति शुद्धम्। चर्च्यमाणः इति अशुद्धम्, चर्च्यमानः इति शुद्धम्। दृश्यमानम् इति अशुद्धम्, दृश्यमानम् इति शुद्धम्। केनचित् महानुभावेन सीतायणम् इति ग्रन्थः लिखितः। सीतायनम् इति प्रयोक्तव्यम्। सीतायणम् इति अपशब्दः। नत्वप्राप्तेः निमित्तं भवति रेफः, शकारः वा। अट्कुप्वादीनां व्यवधाने सत्यपि नत्वं भवति निमित्ते सति। निमित्त अभावे तु नत्वं कथमपि न भवति। सूर्यस्यैव अभावे सूर्यकिरणानां प्रसक्तिः न भवति। सीतायणम् इत्यत्रापि एषा एव गतिः। नत्वनिमित्तभूतः रेफः, शकारः वा अत्र नास्ति। तस्मात् सीतायनम् इत्येव रूपम्। नत्वप्रकरणम् अपरिशीलयद्भिः प्रयुज्येत कदाचित् सीतायणम् इत्यादि, किन्तु तत् शुद्धं न। अन्यानि कतिचन भ्रमयुक्तप्रयोगाः अत्र दृश्यन्ते। अनुधाव्यमाणः, अनुधाव्यमानः इति शुद्धम्। चिन्त्यमाणे इति अशुद्धम्, चिन्त्यमाने इति शुद्धम्। शशाङ्केण इति अशुद्धम्, शशाङ्केन इति शुद्धम्। मण्डलिकानां, मण्डलिकानाम् इति अशुद्धम्, मण्डलिकानाम् इति शुद्धम्। उट्टङ्कणम् इति अशुद्धम्, उट्टङ्कणम् इति शुद्धम्। दौर्भाग्येन मया नत्वविषये अधिकं न ज्ञायते। दौर्भाग्येन इति प्रयोक्तव्यम्। दौर्भाग्येन इति अपशब्दः। निमित्तस्य सद्भावे उत्तरपदे यदा कवर्गः भवति तदा नत्वं नित्यं, कुमति च इति சூத்திரம். விஸ்தரஹ து ஏஷஹ யத்ர கண்டத்வயம் பவதி திஹி வாபிணா இத்யத்ர தத்ர சகண்டம் பதம் இதி உச்யதே. தத்ர நிமித்தம் பூர்வபதே பவதி நகாரஹ உத்தரபதே பவதி ததா ப்ராதிபதிகாந்த இதி சூத்ரேண விகல்பேண நத்வம். யதி உத்தரபதம் கவர்கவத் குமத் பவதி தானத்வம் நித்யம் பவதி ச இதி சூத்ரேண. அன்யானி கானிச்சன உதாஹரணானி சுஷ்கமேகானாம் இதி அசுத்தம் சுஷ்கமேகானாம் இதி சுத்தம் சக்கரவாக்கேன இதி அசுத்தம் சக்கரவாக்கேன இதி சுத்தம் வர்ஷபோகின இதி அசுத்தம் வர்ஷபோகினா இதி சுத்தம் ரவிமயூக்கேன இதி அசுத்தம் ரவிமயூக்கேன சுத்தம் வரயுவகானாம் இதி சுத்தம் வரயுவகானாம் வரயுவகானாம் இதி அசுத்தம் வரயுவகானாம் இதி சுத்தம் கிரிகுஹானாம் இதி அசுத்தம் கிரிகுஹானாம் இதி சுத்தம். சஹ நியமிததயா யோகாசன கக்ஷ்யாம் கச்சதி. நியமிததயா இதி சப்தஹ அஸ்தானே. நியததயா இதி பிரயோக்தவ்யம். நியமிதஹ இத்யத்ர இதச் ப்ரத்யயஹ வக்தவ்யஹ ஸ்யாத். தத்ஸ்ய சஞ்ஜாதம் தாரகாதிப்ய இதச் இதி சூத்திரம். நியமயுக்தஹ இதி தாத்பர்யம் பவதி. அத்ர நியமயுக்தஹ இதி அர்த்தஹ ந விவக்ஷிதஹ. சாதத்யேன சர்வதா இதி அர்த்தஹ அத்ர விவக்ஷிதஹ புனஃ புனஃ இதி. தம் அவகமயிதும் நியத சப்தஹ அர்ஹதி. அதஹ நியததயா இதி பிரயோகஹ ஔசித்யம் ஆவஹதி. ஆகதவதேப்யஹ சர்வேப்யஹ தன்யவாதாஹ சமர்ப்யந்தே இதி பிராதேசிக பாஷா பிரபாவதஹ அபி கதாசித் பிரயுஜ்யதே. ஆகதவதேப்யஹ இதி அபசப்தஹ. ஆகதவத்யஹ இதி வக்தவ்யம். ஆகதவத்யஹ இத்யஸ்ய ப்ராதிபதிகம் ஆகதவத் இதி தகாராந்தஹ சப்தஹ பஹுவசனே ஜல்யேத் இதி சூத்ரேண ஏகாரஹ பவதி. சச ஏகாரஹ அதந்த அங்கஸ்ய விஹிதஹ தகாராந்தஸ்ய ந. அதஹ ஆகதவத் பியஸ் இதி ஸ்திதே ருத்வே விசர்கே ச ஆகதவத்யஹ இதி ரூபம். ஆகதவதேப்யஹ ஆகதவதானாம் இதி பாலிஷாஹ பிரயோகாஹ. அத்ய மந்திரிமண்டலஸ்ய புனர்ரச்சனா விஹிதா. புனர்ரச்சனா இதி அபசப்தஹ. புனாரச்சனா இதி பிரயோக்தவ்யம். புனர் இதி ரேபாந்தம் அவ்யயம். ரச்சனா சப்தஹ ரேபாவிஹி. புனர் ரச்சனா இத்யத்ர ரேபாத்பரஹ ரேபஹ அஸ்தி சேத் ரேபாத்பரஹ அஸ்தி ரேபஸ்ய ரேபே பரே லோபஹ போதி ரோ ரி இதி சூத்ரேண ததா புனாரச்சனா இதி ரூபம் ढलोपे पूर्वस्य दीर्घोणः इति सूत्रेण अकारस्य दीर्घः भवति पुनारचना इति रूपम् प्रादेशिकभाषासु पुनर्रचना इति प्रयुज्यते असंस्कृतं रूपं तत् अन्यानि कानिचन उदाहरणानि पुनः रोषः पुनारोषः अन्तः राज्यीयम् अन्ताराज्यीयम् पुनः रूपं पुनारूपम् एवमेव नीरोगता नीरसः धनुराशिः इत्यादयः प्रयोगाः तस्य नायकस्य महानता जनैः न ज्ञाता एव महानता इति अपशब्दः महत्ता इति प्रयोक्तव्यम् वक्ता अत्र भाववाचकं ताप्रत्ययं कर्तुम् इच्छति स च प्रत्ययः प्रातिपदिकात् भवति महान् इत्यस्य प्रातिपदिकं महत् इति तस्य ताप्रत्यये महत्ता इति रूपं प्रथमान्तात् ताप्रत्ययः न भवति अतः महानता इति रूपमपि न भवति महत्ता इत्येव रूपम् एतत् पत्रं भवतः अवगाहनाय प्रेष्यते अयमपि प्रयोगः प्रायः प्रादेशिकभाषा प्रभावतः कृतः प्रयोगः अवगाहनम् इति अवगाहनाय इति प्रयोगः अस्थाने विषयज्ञापनाय इति प्रयोक्तव्यम् विषयज्ञापनाय भवते प्रेष्यते अवगाहनं नाम अवतरणम् अन्तःप्रवेशः स च अर्थः अत्र न अभिप्रेतः परिशीलनं ज्ञापनम् अवधान आकर्षणं वा अत्र अपेक्ष्यते अतः तदनुगुणः वाक्यप्रयोगः एव करणीयः प्रादेशिकभाषासु अवगाहनशब्दस्य परिशीलनम् इत्यादयः अर्थाः सन्ति संस्कृते तादृश अर्थः न द्योत्यते तेन पदेन अतः विषयज्ञापनाय इति तस्मिन् अर्थे प्रयोक्तव्यम् कार्यक्रमोपरान्तं सः गृहं गतवान् अयं प्रायः हिन्दीभाषा प्रभावतः प्रयुज्यमानः शब्दः उपरान्तशब्दः न संस्कृतः कार्यक्रम अनन्तरम् इति प्रयोक्तव्यम् प्रादेशिकभाषायां यः उपरान्तशब्दः श्रूयते सः न संस्कृतशब्दः संस्कृत आभासः सः अतः तस्य प्रयोगः सर्वथा परिहरणीयः आश्रमे जनानाम् आवागमनं విశేషతః దృశ్యతే. ఆవాగమనం ఇది అపశబ్దః, గమనాగమనం ఇది ప్రయోక్తవ్యం. ఉపరితన వాక్యే జనానాం గమనం ఆగమనం చ వక్తుం ఇష్టం. తం అర్థం బోధయితుం ఆవాగమనం ఇతి శబ్దః న సమర్థః. ఆవాగమనం ఇత్యత్ర ఆ అవ ఆ ఇతి ఏతేషాం ఉపసర్గాణాం సద్భావః వక్తవ్యః స్యాత్. తావతాపి అపేక్షితస్య అర్థస్య జ్ఞాపనం న శక్యం, అతః తస్య ప్రయోగస్య త్యాగః ఏవ వరం. గమనాగమనం ఇతి ప్రయోగః సమీచీనః. భారతేన క్షిపణిః సజ్జీకృత అస్తి. క్షిపణిః ఇత్యస్య ప్రయోగ పరిహారః ఏవ వరం. క్షేపణి ఇతి ప్రయోక్తవ్యం. క్షిపధాతోః కరణార్థే ల్యుట్ ప్రత్యయః కరణాధికరణయోశ్చ ఇతి సూత్రేణ. ల్యుట్ ప్రత్యయః టిత్ ఇత్యతః, టిడ్ఢాణై ఇతి సూత్రేణ ణీ ప్రత్యయః, పుగంత లఘూపధస్య చ ఇతి గుణః, తతః క్షేపణి ఇతి రూపం. కశ్చన న్యాయః అస్తి వ్యాకరణే సంజ్ఞాపూర్వకః విధి అనిత్యః ఇతి, తత్ తేన క్షిపణి ఇతి రూపం సమర్థయితుం శక్యేత, కింతు తాదృశః ప్రయోగః ప్రామాణికః ప్రయోగః శిష్ట ప్రయోగః న దృష్టః, అతః క్షేపణి ఇతి ప్రయోగః ఏవ వరం. పత్ర వితరకః పత్రాణి వితరతి. వితారకః ఇతి ప్రయోక్తవ్యం. నూల్ త్రిశౌ ఇతి సూత్రేణ నూల్ ప్రత్యయః భవతి, తతః వృద్ధిః భవతి ఇత్వోత్వాభ్యాం ఇతి వార్తికేన వితారకః ఇతి రూపం. నూల్ ప్రత్యయే తరకః ఇతి రూపం తు న భవతి, అతః వితారకః ఇత్యేవ ప్రయోక్తవ్యం. వితరకః ఇతి సాధనీయం ఇతి ఆగ్రహః అస్తి చేత వితరతి ఇతి వితరః పచాద్యచ్ అచ్ ప్రత్యయః, వితరః ఏవ వితరకః ఇతి స్వార్థే క ప్రత్యయః ఇత్యాదికం చింతనీయం స్యాత్. కింతు తస్మరణీయం యత్ స్థితస్య గతిః చింతనీయా ఇతి న్యాయేన మార్గః దర్శితః, ప్రామాణిక ప్రయోగః నాస్తి ఇత్యతః వితారకః ఇత్యేవ ప్రయోక్తుం యుక్తం. వితరకః ఇతి ప్రయోగః అనుచితః ఏవ భవతి. సః చలచిత్రం ద్రష్టుం గతవాన్. చలచిత్రం ఇతి రూపం సాధు ఏవ. ఏతస్మిన్ ఏవ అర్థే చలచిత్రం చలనచిత్రం ఇత్యపి ప్రయోగః అస్తి. యత్ చిత్రం చలం నామ చంచలం భవతి తత్ చలచిత్రం. చలం లోలం చలాచలం ఇతి అమరకోశస్య ప్రయోగః. యత్ చిత్రం చలద్ భవతి తత్ చలచిత్రం. కర్మధారయ సమాసః. చలనోపేతం చిత్రం చలనచిత్రం. తః త్రీణి అపి రూపాణి సాధూని ఏవ. సః తైత్తరీయోపనిషదం పఠతి. అత్ర కశ్చన దోషః అస్తి. తైత్తరీయం ఇతి భవేత్, అత్రాపి దోషః అస్తి. తైత్తరీయం ఇతి అపశబ్దః, తైత్తిరీయం ఇతి శుద్ధః ప్రయోగః. తిత్తిరిహి నామ కశ్చన ఋషిః, तत्सम्बद्धं तैत्तिरीयम्। यदि ऋषेः नाम तैत्तरिहि इति स्यात् तदा तैत्तरीयम् इति शुद्धं स्यात्, किन्तु तन्नाम्ना ऋषिः नास्ति अतः तैत्तिरीयम् इत्येव शुद्धं रूपम्। अत्र दोषः अस्ति, तैत्तरीय इति अपशब्दः इति भवति। पुनश्चिन्तनाय एषः सकालः। सकालः इति प्रयोगः अस्थाने। सुकालः इति वा योग्यः कालः इति वा प्रयोक्तव्यम्। सकालः इत्यस्य अर्थः भवति कालेन सहितः इति। कालसहितत्वम् अत्र न अभिप्रेतम्, योग्यः कालः अभिप्रेतः, अतः तदनुगुणः प्रयोगः करणीयः। सकालः इति प्रादेशिकभाषायां प्रयुज्येत, तदनुकुर्वद्भिः औचित्यम् अचिन्तयद्भिः सुकालार्थे सकालशब्दः प्रयुज्यते दोषाय, अतः सुकालः योग्यः कालः इति प्रयोक्तव्यम्। सः भिक्षुकः सदृढः दृश्यते, सदृढः इति अस्थाने, सुदृढः दृढकायः इति प्रयोक्तव्यम्। सदृढपदस्य अर्थः दृढेन सहितः इति, अत्र दृढकायत्वमिष्यते, तदनुगुणः एव पदप्रयोगः उचितः। सः एतत् कार्यं कर्तुं सक्षमः अस्ति। सक्षमः इति अस्थाने, क्षमः इति एतावता एव अलम्। क्षमः नाम समर्थः, सः कार्यकरणे समर्थः अस्ति अर्थः विवक्षितः। तं गमयितुं क्षमशब्दः समर्थः। सक्षमः नाम क्षमेण समर्थेन सहितः। अत्र तु समर्थः विवक्षते, न तु समर्थेन सहितः अन्यः, अतः क्षमशब्दः एव पर्याप्तः। सक्षम इति नावश्यकम्। सशक्तशब्दः अपि एवमेव, शक्तः इत्यनेन एव इष्टसिद्धिः भवति, स इत्यस्य योजनं नावश्यकम्। एतादृशः दृष्टिकोणः न युक्तः। दृष्टिः इति चिन्तनम् इति वा प्रयोक्तव्यम्। दृष्टिः नाम दर्शनम् ज्ञानम् वा। कोणशब्दस्य गृहादीनाम् एकदेशः, दिशोः विदिशोः वा मध्यभागः, रेखयोः सन्धिस्थानम् इत्यादयः अर्थाः। प्रकृतवाक्ये कोणशब्दवाचकस्य अर्थस्य न कापि प्रसक्तिः। चिन्तनस्य ज्ञानस्य अयुक्तता वक्तुमिष्यते, अतः दृष्टिशब्दमात्रम् पर्याप्तम्, कोणशब्दस्य प्रयोगः न आवश्यकः। एतावता बहून् शब्दान् वयम् दृष्टवन्तः। यदि केऽपि सन्देहाः सन्ति अत्र पत्रद्वारा भवन्तः प्रष्टुमर्हन्ति। पूर्वतनाः पाठाः सर्वे अत्र द्रष्टुं शक्यन्ते इति भवन्तः जानन्ति एव। अद्यतनपाठम् अत्र समापयामः। सर्वेभ्यः नमस्कारः।